इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको नरेन्द्रदत्तः सेमवालः आदौ जीएसटी इत्यस्य द्वितीय संस्करणस्य परिष्कारेण देशस्य अर्थव्यवस्था महतीं वृद्धिम् अवाप्नोत्। देयमितोचा अपचितिलाभः सामान्यजनेभ्यः प्रदीयते। निर्वाचनायोगः अद्य अघोषयत् यत् बिहार राज्यस्य सर्वे कर्मकर मतदातारः दैनन्दिन अनौपचारिक कर्मकारश्च राज्ये आगामिषु विधानसभा निर्वाचनेषु मतदानदिनेषु वेतनसहित अवकाशदिनानाम् अधिकारिणः भविष्यन्तीति। रक्षामंत्री राजनाथ सिंह उत्तर प्रदेश मुख्यमंत्री योगी आदित्यनाथ च अद्य लखनऊ नगरस्य ब्रह्मोस एयरोस्पेस यूनिट इत्यस्मिन् एकांशे निर्मितानां ब्रह्मोस प्रक्षेपास्त्राणां प्रथमं समूहं ध्वजारोहण पूर्वकं देशसेवायै समर्पितवन्तौ। अद्य देशस्य विभिन्नेषु भागेषु धनतेरस उत्सवः आचर्यते। अपि च भारतीय धनुर्धर्या ज्योति सुरेखा वेन्नम इत्यनया चीनदेशस्य नानजिंग नगरे विश्वकप अन्तिम कांस्य पदकं विजित्य इतिहासं रचितम्। अथ वार्ताः विस्तरेण। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणवर्या अवदत् यत् जीएसटी इत्यस्य द्वितीय संस्करणस्य परिष्कारेण देशस्य अर्थव्यवस्था महतीं वृद्धिम् अवाप्नोत्, येन उत्सवसमये इलेक्ट्रॉनिक्स ऑटोमोबाइल्स उपभोक्तृवस्तूनि चेत्यादिषु प्रमुखक्षेत्रेषु सर्वोत्तम विक्रयणं सञ्जातमस्ति। सा अद्य नवदिल्ल्यां सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन वाणिज्य उद्योग मन्त्रिणा पीयूष गोयलवर्येण च सह जीएसटी बचत उत्सव इत्यस्मिन् विषये संयुक्त वार्ताहर सम्मेलनं संबोधयन्ती आसीत्। वित्तमन्त्रिणा प्रोक्तं यत् जीएसटी इत्यस्य देयमितौ अपचितिलाभः सामान्यजनेभ्यः प्रदीयते इति। अस्मिन् अवसरे वार्तालापं कुर्वन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् अस्मिन् वर्षे नवरात्रि उत्सवे सर्वोत्तम विक्रयणं दृष्टमस्ति। सः अवदत् यत् अस्मिन् वर्षे नवरात्र्युत्सवावधौ इलेक्ट्रॉनिक्स इत्यस्य विक्रयणे पूर्वतनस्य नवरात्रि उत्सवस्य विक्रयणेन तुल्यं 25% वृद्धि अभवत्। सः अवदत् यत् जीएसटी परिष्कारैः खाद्यपदार्थानां मूल्येषु अपि अपचितिः सञ्जाता। जीएसटी बचत उत्सव इत्यस्मिन् विषये वाणिज्य उद्योग मन्त्री पीयूष गोयल वर्यः अवदत् यत् नवरात्रि समये वाहनानां विक्रयणम् अभूतपूर्व रूपेण वर्धितमस्ति। सः अवदत् यत् एतादृशस्य अस्थिर वैश्विक परिदृश्यस्य समये देशस्य वृद्धि एतावता प्रबलगत्या प्रचलन्ती अस्ति, येन अन्ताराष्ट्रिय मुद्रा कोषेन अपि देशस्य वृद्धेः पूर्वानुमानं संशोध्य 6.6% यावत् वर्धितमस्ति। भारतीय निर्वाचनायोगः अद्य अघोषयत् यत् बिहार राज्यस्य सर्वे कर्मकर मतदातारः दैनन्दिन अनौपचारिक कर्मकारश्च राज्ये आगामिषु विधानसभा निर्वाचनेषु मतदानदिनेषु वेतनसहित अवकाशदिनानाम् अधिकारिणः भविष्यन्तीति। आयोगेन एतदपि उक्तं यत् विभिन्नानां राज्याणाम् अष्टसु विधानसभाक्षेत्रेषु यत्र 11 नवम्बर दिनांके उपनिर्वाचनं भविष्यति तत्र नियोजिताः मतदानकर्मिणोऽपि वेतनसहित विरामस्य अधिकारिणः भविष्यन्तीति। निर्वाचनायोगः सूचितवान् यत् ते निर्वाचकाः निर्वाचनक्षेत्रात् बहिः कार्यं कुर्वन्तः सन्ति परन्तु निर्वाचने गच्छन्तः मतदातृरूपेण पञ्जीकृताः सन्ति, ते अपि वेतनसहित विरामस्य लाभं प्राप्तुम् अर्हन्ति इति। आयोगः अवदत् यत् अस्य कार्यस्य उद्देश्यं मतदान वर्धनम् अस्तीति। रक्षामंत्री राजनाथ सिंह उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ च अद्य लखनऊ नगरस्य ब्रह्मोस एयरोस्पेस यूनिट इत्यस्मिन् एकांशे निर्मितानां ब्रह्मोस प्रक्षेपास्त्राणां प्रथमं समूहं ध्वजारोहण पूर्वकं देशसेवायै समर्पितवन्तौ। अस्मिन् अवसरे रक्षामंत्री अवदत् यत् ब्रह्मोस इत्येतत् न केवलं प्रक्षेपास्त्रम् अपि तु देशस्य वर्धमानानां स्वदेशी क्षमतानां प्रतीकमस्ति। सः अवदत् यत् ब्रह्मोस इत्यस्य उन्नत निर्देशित प्रणाली अस्ति यया एतत् सुपरसोनिक वेगेन अतिदूरं यावत् प्रहारं कर्तुं शक्नोति। सः अवदत् यत् वेगस्य यथार्थतायाः शक्तेः च संयोगेन ब्रह्मोस इत्येतत् विश्वस्य सर्वोत्तमेषु प्रक्षेपास्त्र प्रणालिषु अन्यतमा वर्तते। सिंहवर्यः दृढविश्वासं प्रकटितवान् यत् देशस्य शत्रवः अधुना ब्रह्मोस इत्यस्मात् पलायितुं न शक्नुवन्ति।
देश में जब लोग ब्रह्मोस की चर्चा करते हैं, सबके जेहन में मिसाइल के साथ साथ एक विश्वसनीयता की इमेज स्वाभाविक रूप से आ जाती है। ब्रह्मोस सिर्फ एक मिसाइल नहीं है, बल्कि वह भारत की बढ़ती हुई स्वदेशी क्षमताओं का प्रतीक है। एक तरफ इसमें ट्रेडिशनल वारहेड हैं, एडवांस गाइडेड सिस्टम्स हैं, तो दूसरी तरफ यह सुपरसोनिक गति से लंबी दूरी तक मार कर सकता है। स्पीड, एक्यूरेसी और पावर का यह कॉम्बिनेशन ब्रह्मोस को दुनिया की सर्वश्रेष्ठ प्रणालियों में से एक बनाता है।
लखनऊ ब्रह्मोस एकांशः उत्तर प्रदेश रक्षा विनिर्माणस्य प्रथम सौविध्यम् अस्ति, यत्र प्रक्षेपास्त्र प्रणाल्याः निर्माणात् आरभ्य अन्तिम परीक्षण पर्यन्तं सम्पूर्ण प्रक्रिया स्वदेशे एव विधीयते। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। अद्य देशस्य विभिन्नेषु भागेषु धनतेरस इति धन्वन्तरी त्रयोदश्याः पर्व आचर्यते। अद्य जनाः नूतनानि वस्तूनि, विशेषतः स्वर्ण रजतादीनि वस्तूनि, नूतनानि पात्राणि च क्रेतुं शुभदिनम् इति मन्यन्ते। अस्मिन् दिने उपकरणानां वाहनानां च महत् क्रयणमपि दृश्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना धनतेरस इति पर्वणि लोकाय शुभाशयाः प्रदत्ताः। अवसरेऽस्मिन् सामाजिक प्रसार माध्यमेन श्रीमोदी सर्वेभ्यः सुखस्य, समृद्धेः, सुस्वास्थ्यस्य च प्रार्थनां कृतवान्। सः आशां प्रकटितवान् यत् धन्वन्तरी भगवान् सर्वेभ्यः नागरिकेभ्यः विपुलम् आशीर्वादं दद्यादिति। केन्द्रीय गृहमन्त्री अमितशाहः, भाजपाध्यक्षः जेपी नड्डा च अस्मिन् अवसरे जनेभ्यः शुभाशयाः प्रेषितवन्तौ। बिहार विधानसभा निर्वाचनस्य प्रथमचरणाय नामांकनानां परीक्षणं प्रचलति। अस्मे चरणाय आहत्य 98.6 लाख नामांकनपत्राणि प्रेषितानि। अभ्यर्थिनः अस्य मासस्य 26 दिनांकपर्यन्तं नामांकनानां प्रत्यावर्तनं कर्तुं शक्नुवन्ति। प्रथमचरणे अग्रिममासस्य 6 दिनांके 18 मण्डलेषु प्रसृतेषु 21.1 लाख विधानसभाक्षेत्रेषु मतदानं भविष्यति। एतन्मध्ये सीपीआई एमएल इत्यनेन दलेन 20 अभ्यर्थिनां सूची प्रकाशिता। एतेषु 14 अभ्यर्थिनः प्रथमस्य चरणस्य कृते पूर्वमेव नामांकनं कृतवन्तः सन्ति। बांग्लादेशे अद्य अपराह्णे ढाका नगरस्य हजरत शह जलाल अन्ताराष्ट्रिय विमानस्थानकस्य कारवु क्षेत्रे महान् अग्निप्रकोपः अभवत्, येन अग्निशामकाः अग्निं नियन्त्रयितुं प्रयतन्ते इति कारणात् अधिकारिणः सर्वान् विमान परिचालनान् स्थगयितुं बाध्याः अभवन्। अग्निशामक सेवायाः, नागरिक रक्षायाः च अनुसारम् आहत्य 32 अग्निशामकदलानि स्थलं प्रति प्रेषितानि। अधिकारिणः अधुनापि अग्निकाण्डस्य कारणं, क्षतेः वा आकलनं कुर्वन्ति। महाराष्ट्रे नन्दूरबार जनपदस्य तलोडा तालुका इत्यस्य चन्दशैलीघाट इत्यत्र जातायां वाहन दुर्घटनायां 8 जनाः मृताः, 28 जनाः व्रणिताः च सन्ति। पीडिताः अद्य प्रातः अस्तम्बा तीर्थयात्रातः प्रत्यागच्छन्ति स्म। एषा यात्रा यदा अभवत् तदा एषा दुर्घटना संजाता। प्रारम्भिक सूचनानुसारं 24 तः अधिकाः जनाः वाहने यात्रां कुर्वन्तः आसन्। व्रणितेषु 15 जनानां स्थितिः गंभीरः इति आरक्षिबलम् अकथयत्। व्रणिताः प्रथमं तलोडा उपमण्डल चिकित्सालये नीताः सन्ति, अनन्तरं च चिकित्सायै नन्दूरबार मण्डल चिकित्सालयं प्रति स्थानान्तरिताः। व्रणितेषु नन्दूरबर उपमण्डलस्य, नगरस्य च घोटाने, शमशेरपुर, शबरीहट्टी क्षेत्राणां निवासिनः सन्ति। भारतीय धनुर्धर्या ज्योति सुरेखा वेन्नम इत्यनया चीनदेशस्य नानजिंग नगरे कांस्य पदकं प्राप्य धनुर्विद्यायाः विश्वकप इति अन्तिमस्पर्धायां पदकम् अवाप्य प्रथम भारतीय महिलारूपेण इतिहासं रचितम् इति वार्ताः।